अथ नवमोऽध्यायः ध्यानम् ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौचवरदां निजबाहुदं विभ्राणमिन्दुशकलाभरणम् त्रिनेत्रमरधाम्बिकेशमणिशम् वपुराश्रयामि ॐ राजोवाच विचित्रमिदमाख्यातम् भगवन् भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् भूयश्चेच्छाम्यहम् श्रोतुम् रक्तबीजे निपातिते चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ऋषिरुवाच चकार कोपमतुलम् रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे धन्यमानम् महासैन्यम् विलोक्यामर्शमुद्वहन् अभ्यधावन्निशुम्भोऽथ मुख्यया सुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुरा सन्दस्तौस्थतुता क्रोधा हन्तुम् देवीमुपाययुः आजगाम महावीर्य शुम्भोऽपि स्वबलैर्वृतः निहन्तुम् चण्डिकाम् कोपात् कृत्वा युद्धम् तु मातृभिः ततो युद्धमतीवासीत् देव्या शुम्भनिशुम्भयुः सर्वदसमतीवोग्रम् मेघयोरिव वर्षतो चिच्छेदास्तां स्थरांस्ताभ्याम् चण्डिका स्वसरोत्करेः ताडयामास चाङ्गेषु शस्त्रौ धैर्यसुरेश्वरौ निशुम्भो निशितं खड्गम् चर्म चादाय सुप्रभम् हताडयन्मूर्ध्नि सिंहम् देव्या वाहनमुत्तमम् ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् निशुम्भस्यासु चिच्छेद चर्म चाप्यस्य चन्द्रकम् छिन्ने चर्मणि खड्गे च शक्तिम् चिक्षेप सोऽसुरः कामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् कोपाग्मातो निशुम्भोऽथ शूलम् जग्राह दानवः आयातम् मुष्टिपातेन देवी तच्चाप्यचूर्णयत् आविध्याथ गदाम् सोऽपि चिक्षेप चण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् समायान्तम् तैत्यपुङ्गवम् आहत्य देवी बाणौ धैर्पातयत भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे धातव्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् स रथस्थस्तथात्युच्चैर्गृहीत परमायुधैः भुजैरस्ताभिरकुलैर्व्याप्याशेषम् बभौ नभः समायान्तम् समालोक्य देवी शङ्खमवादयत् व्याशब्दम् चापि धनुषश्चकारातीव दुःसहम् पूरयामास ततुभ निजघण्टास्वनेन च समस्त दैत्यसैन्यानाम् तेजो वधविधायिना तत सिंहो महानादैत्याजिते भमहामदैः पूरयामास गगनम् ताम् तथैव दिशो दश ततः काली समुत्पत्य गगनम् श्वामताडयत् कराभ्याम् तन्निनादेन प्राक्स्वनातेति रोहितः अष्टाट्टहासम शिवम् शिवदूती चकारय तैषद्यैरसुरासु शुम्भकोपम् परम् ययौ पुरात्मन् स्तिष्ठतिष्ठेति व्याजहाराम्बिका यदा तदा जयेत्यभिहितम् देवैराकाशसंस्थितैः शुम्भेन गत्यया शक्तिर्मुक्ता ज्वालादिभीषणा आयान्ति वानिकूटा भासा निरसा महोल्कया सिंहनादेन शुम्भस्य व्याप्तम् लोकत्रयान्तरम् निर्घातनिष्वनो घोरो जितवानवनीपते शुम्भमुक्ताम् शराम् देवी शुम्भस्तत्प्रहिताम् शराम् चिच्छेद स्वशरैरुग्रै शतशोऽथ सहस्रशः ततः सा चण्डिका क्रुद्धा शूलेनाभिजघानकम् सतदाभिहतो भूमौ मूर्छितो निपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्रकार्मुकः आजघान शरैर्देवीम् कालीम् केशरिणम् तथा पुनश्च कृत्वा बाहूनामयुतम् तनुजेश्वरः चक्रायुधेन दितिजस्थादयामास चण्डिका ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी शिक्षेदतानि चक्राणि स्वशरैसायकांश्च ताम् ततो निशुम्भो वेगेन गदा मादाय चण्डिकाम् अभ्यधावत वै हन्तुम् दैत्यसेना समावृतः तस्या पतत एवाशु गदाम् चिच्छेद चण्डिका खड्गेन शितधारेण स च शूलम् समाददे शूलहस्तम् समायान्तम् निशुम्भमरार्दनम् हृदि विद्याधशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्य श्रितो परः महाबलो महावीर्यश्चित्तेति पुरुषो वदन् तस्य निष्क्रामतो देवी प्रहस्य स्वनवस्ततः शिरश्चिच्छेदखड्गेन ततो सावपतत् भुवि ततः सिंहश्चखाद्युग्रम् संस्राक्षुन्नशिरोधरान् असुरांस्तांस्तथा काली शिवदूती तथा परा कौमारी शक्ति निर्भिन्नाः ते चिन्नेसुर्महासुराः ब्रह्माणि मन्त्रकूपेन तो ये नान्ये निराकृताः माहेश्वरी त्रिशूलेन भिन्ना ते तुस्तथा परे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डं खण्डं सचक्रेण वैष्णव्या दानवः कृताः वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथा परे केचिद्विने सुरसुराः केचिन्नस्ता महाहवात् धक्षिताश्चापरे काली शिवदूती मृगाधिपः श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये नवमः श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु।